उत्थितवती, दन्तवादनं स्नानं च कृतवती, एकं चषकं काफी पीतवती,
पीतवती,
एकं चषकं काफीं काफीं पीतवती, किञ्चित् समय तिष्ठवती, अनन्तरं
एकनिमिषं, किञ्चित् समयं
किञ्चित् समय समय तिष्ठवती, वेटेड् ऐ मीन्
स्थितवती, तिष्ठति इस् देर् नो, तिष्ठति पदस्य
तिष्ठवती
स्थितवती
स्थितवती. ओके, अनन्तरं किञ्चित् दूरं प्रातः भ्रमणं कृतवती, वाकिङ्ग्,
पादेन भ्रमणं कृतवती,
पादेन भ्रमणम्, ओके, पादेन भ्रमणं कृतवती. अद्य मम गृहे अतिथयः आगताः सन्ति, आगताः सन्ति, अतः अहं स्वल्पाहारं पाकं करोमि, ब्रेक्फास्ट्,
अल्पाहारम्,
अपाकं करोमि. एतस्य अनुसन्ति आगामि सप्ताहे अहं वदिष्यामि.
सम्यक्,
इदानीं वर्षस्य विलम्बः भवति.
अस्तु, सम्यक्, अग्रे.
धन्यवादः.
सङ्गीता मेम्, ऐ हाव् अ डौट्. Herself in the whole conversation, so why was it not me in, and why was it T in all the cases?
If it is a present tense, that's a very good question. If it is a present tense, then me will come. अहम् उत्तिष्ठामि, अहं पाकं पचामि इति पूर्व प्रसेण्ट् टेन्स् मध्ये वर्तमानकाले एतत् आगच्छति, मी प्रयोगः. परन्तु भूतकाले गतवान्, गतवती, पुल्लिङ्गप्रयोगः गतवान्, स्त्रीलिङ्गप्रयोगः गतवती, फर् आल् पुरुषाः, प्रथमपुरुषः, मध्यमपुरुषः, उत्तमपुरुषः, फर् आल् भूतकालप्रयोगं समानमेव, गतवती, गतवान्.
ओके, ओके, गेट् दट्.
अहम् आगतवती एव, अहम् आगच्छामि इन् प्रेसेण्ट् टेन्स्, बट् इन् भूतकाले अहम् आगतवती, अहमपि आगतवती, सा अपि आगतवती, त्वमपि, सा, भवती अपि आगतवती.
ओके, थेङ्क् यू मेम्.
Bhagini, I had one question, one doubt. In that kriyapada karoti, present tense, bhutakale becomes krutavan, krutavati.
Krutavati.
Sometimes for bhutakala we use akarot also, no?
That we have not yet seen, so I didn't tell about that. That is also okay. Bhutakala. There are three to four types of bhutakala are there. परोक्षभूतकाल, अद्यतनभूतकाल इति, देर् आर् भिन्नभिन्नभूतकालाः सन्ति. वेन् वि यूशुलि टेल् स्टोरीस् वेर् वि डोण्ट् नो द आक्चुवल् टैम्, देन् वि यूस् दट् अकरोत्, अगच्छत् सर्वं, दट् इस् लङ् लकारः इति वयं न पठितवन्तः, वि हेव् नाट् इट् डन्, बट् इन् द नार्मल् सम्भाषण, सिम्पल् सम्भाषणम् एतत् गतवती, गतवान् अपि भूतकालः, तावत् दट् इस् नाट् लकारः, बट् इट् इस् अ तावत् प्रयोगः इति नाम, जस्ट् टु सिम्प्लिफै द सम्भाषणम्.
ओके, धन्यवादः.
स्थितवती,
अस्माकं भूतकालप्रयोगः अस्ति खलु, दट् यु हेव् अ टेबल्, नो, विशेषक्रियापदानि अभ्यासपुस्तकं
स्थितवती.
You can check that. It is स्थितवती.
Okay.
स्थितवान् स्थितवती.
Okay.
अग्रे, who wants to go next? सुजया भगिनी, मधुरिका भगिनी, रमा भगिनी, अरविन्द महोदय.
Okay, ma'am. I'll try. It's simple, but okay. Namo Namaha. Mama Nama Madhurika. Aham Ruhini. Aham England Deshe Portsmouth Nagare Vasami. Idanim Portsmouth Nagare Vatavaran Sundaram Asti. Gatavarshe Aham Bharat Deshe Agatvat. भारतदेशम् आगतवती. अहं प्रातःकाले अष्टवादने कार्यालयं गच्छामि. मम कार्यालयं सार्धपञ्चवादने समाप्यति. सार्धपञ्चवादने समाप्यति. अहं प्रतिमङ्गलवासरे द्विवादने संस्कृतपाठं पठामि. मम अध्यापिका सङ्गीता भगिनी. दट्स् आल्.
सम्यक् उत्तमं भगिनि. वेरि गुड्. अग्रे
सङ्गीता भगिनी. सङ्गीता भगिनी
महोदय, भवान् स्पीकर् मध्ये. एको इस् कमिङ्ग्
इस् वन् मिनिट्.
इट्स् नाट् देर् नौ. वदति वा? हरि ओम्
भगिनी, केन् ऐ ट्रै मीन्
वै? या या नेक्स्ट् या यु केन् ट्रै. ऐ थिङ्क् अरविन्द् महोदय इस् ट्रैङ्ग् समथिङ्ग्. अनु भगिनी वदतु.
ऐ जस्ट् वाण्ट् टु टेल् मै जस्ट् थर्स्डे मै रुटीन्. मम अहं गुरुवासरे सार्धद्विवादनम् उदितवती. प्रति गुरुवासरे उदितवती. प्रति गुरुवासरे प्रातःकाले ब्रह्ममुहूर्तकाले शङ्कराचार्यदेवाः अर्चितुं करोमि. अर्चनां करोमि. गुरुवासरे देवेभ्यः मधुरम् ओदनं पाष्यामि. गुरुवासरे फलं क्षीरं च खादामि, ओदनं न खादामि. गतः बुधवासरे पुष्पं क्रीणीतवती. अनन्तरं नेक्स्ट् हू वाण्ट्स् टु डु? विजया भगिनी,
एम् ऐ ऑडिबल्?
ऑडिबल् या करोतु. या
इस् इट् ओके? या ओके. सो आई विल् ट्राई टु से द थर्स्टी क्रो इन् संस्कृत, द स्टोरी आफ् थर्स्टी क्रो.
किमपि वदतु.
या वेरी सिम्पल् बट् आई विल् मेक् सम् मिस्टेक्स्.
दट्स् ओके.
एक काका अस्ति, देयर इज अ क्रो. सो
नो नीड् ऑफ ट्रान्सलेशन्. वदतु.
ओके. सः बहु बिपाश
अस्ति.
पिपासा अस्ति. कुत्रापि जल नास्ति तत्र. जलं नास्ति तत्र. सः घटः पश्यति. काकः सन्तोषः भवति परन्तु गटे स्वल्पं जलम् अस्ति परन्तु इस् रैट् परन्तु इस् रैट् ओके परन्तु गटे स्वल्पं जलम् अस्ति जल कट पिबामि
कथं पिबामि
कथं पिबामि सः एकम् उपाय करोति स्टोन् इस् शिला संथिङ्ग् शिलाखण्डः शिलाघट घटः त्रोस् मीन्स् वट्
खण्डाः
खण्डाः
शिलाखण्डाः
खण्डाः
क्षिपति
क्षिपति
स्थापयति
घटे पूरय घटे पूरयति
पूरयति
पूरयति जलम् उपरि आगच्छति काकः सन्तोषः जल पिबति सन्तोषेण जल पिबति तत गच्छति सो अगेन् ऐ विल् रिपीट् वट् इस् इट् फार् स्टोन् स्टोन्
शिलाखण्डः
शिलाखण्डः
काकः throw va throws shipati that we have seen one story no cap and monkey story
but kale tapayidi vise no tapayidi
atra
tapayidi
shipati is throwing tapayati is keeping inside the pot bhavan uktavan sarva present tense vartamana kala kata but usually stories will be in bhutakalah
bhutakalah
you need to just convert kakaha seet jalama seet tasya pipasa seet iti just you can try that in bhutakalah also nothing wrong in telling in vartamana kalah you can try and one more thing everywhere you need to use the dvitiya vibhakti prayogam im jalam aseet काकः घटं घटः एव नाम बट् घटं
पश्यति
एव्रिवेर् द द्वितीया विभक्तिप्रयोगम् आवश्यकं दट्स् ओके विल् प्राक्टीस् एव्री लिटिल्
अस्तु
सम्यक् अग्रे
भगिनि मै ऐ हेव् आल्रेडि डन्
भगिनि
अहं विजया
वदतु
मम मातृभाषा कोङ्कणी अस्ति मम गृहस्य पुरतः वाटिका अस्ति तत्र वाटिकायां पुष्पाणि अलङ्कृतलताः च सन्ति अहं सप्ताहस्य द्विदिने जलं ददामि जलं ददामि खगाः जलं पीत्वा आगच्छन्ति ओन्लि फैव् सेकेण्ड्स्
हा अस्तु सम्यक् सम्यक् प्रयत्नम् ऐ जस्ट् देयर् इस् नथिङ्ग् राङ्ग् ऐ जस्ट् एड् फ्यू वर्ड्स् फार् एव्री वन्स् थिङ्ग् generally when to dvaya dina dve dine iti na agachati instead we always tell dina dvayam
dina dvayam okay
dvayam dina till 4 we say that we will read later but anyway I'm just telling
okay
dina dvayam okay. dina trayam iti agachati ordinal numbers tatra
okay
anantaram okay. jalam generally if you're putting water for plant there is a separate kriya padam वपामि जलं प्रतिदिनम् अहं जलं वपामि ऐ गिव् वाटर् टु द प्लाण्ट्स् वपामि इति अस्ति वपति वपामि इति अस्ति अनन्तरं खगः खगाः दयन्ते दयन्ते इस् फ्लैङ्ग् दयते इस् अ क्रियापदं फ्लैङ्ग् दयते आर् दयन्ते दयते दीस् आर् द विशेषक्रियापदानि
धन्यवादः
डयन्ते बहुवचनं दायते आत्मनेपति दातु द फस्ट् दयते डमरु इति खलु नेक्स्ट् ऐ डिन्ट् काल् बै नेम् ऐ थाट् अद् यु विल् ओन्लि कम् शर्मिला भगिनी शोभा भगिनी
सङ्गीता भगिनी
हलो
ओके
वदतु या या ऐ केन् हियर् शोभा भगिनी वदतु
I didn't actually prepare much, just about 3 sentences. Idanin Hong Kong e shitakala samapta abhavat. Gata saptahat kinchit matra ushnam bhavati.
Seet. Gata saptahe, past tense.
Gata saptahe, is it?
Ushnam aseet.
उष्णम् आसीत् ओ नाट् भवत् ओके आसीत् इति वातावरण सम्यक् अस्ति
सम्यक् भवती किं खादितवती अद्य
किं खादितवती
आम् वाट् डिड् यु हेड्
roti, how do you say chapati?
Rotika.
Today is adya dinner is
Ratri bhojanam,
chapati sabzi cha khadati.
Khadami. खादामि न अभवत् अस्तु खादामि अत्र
अत्र
समयः कः
समयः नववादने सार्धनववादने
वादनम्
अस्ति
शुभभगिनी हाङ्काङ्ग् देशस्य कोविड् 19 क्रैसिस् अस्ति वा
सर्वत्र अस्ति
हौ मच् इस् देट् हौ मच् इस् द इम्पेक्ट् इन् हाङ्काङ्ग्
कथमस्ति
it was huge in February, March. Now, in fact, from the last 15-20 days, no cases.
February, March. इदानीं न्यूनम् अस्ति
जीरो अस्ति
पञ्चदशमस्ति अथवा इदानीं रुग्णाः नास्ति रुग्णाः एव नास्ति देर् इस् नो पेशण्ट् रुग्णाः एव
नास्ति
नूतनरुग्णाः न सन्ति
न सन्ति
कति
जनाः रुग्णाः अभवत् कति जनाः मृताः हौ मेनि पीपल्
शी डजन्ट् हाव्
डेटा Sangeeta bagini, crisis would you say?
In Hong Kong, I think you can get it.
No, I didn't say anything. I said
sankat for crisis.
Sankatam asti. Sankatam is a troubling. Trouble. It's a problem.
Trouble.
Okay. Good. I will tell you the correct word, Mahodaya. Chintayitva vadami. Anantaram, Lakshmi Bhagini, Parul Bhagini, Sharmila Bhagini, Sambhashanam Karoti va?
शर्मिला अस्मि
वदतु भगिनि
अहं वस्तुतः किमपि न लिखितवती
चिन्ता मास्तु प्रारम्भं करोति वदतु
गतसप्ताहे अभिवादनमपि न कृतवती अतः अद्य मम इन्ट्रोडक्षन्
परिचयं
स्वपरिचयं वदामि मूलतः मुम्बै नगरे निवसितवती
उषितवती वसति भूतकालप्रयोगः
उषितवती षण्णवतिवर्षे भारत जापान् देशे वर्षे भारत जापान् देशे गतवती
देशं गतवती
जापान् देशं गतवती तत्र पञ्चदशवर्षे निवसित् आसीत्
उषितवती
जापान् देशात् एकादशवर्षे हौ डु यु से 2011 निसहस्र एकादशवर्षे
तत् किञ्चित् इट्विल् बि लिटल् लाङ्ग् ओन्लि एकादश अधिक द्विसहस्रवर्षे तमे वर्षे इति दट्स् ओके इदानीं ऐ डोण्ट् वाण्ट् टु कन्फ्यूस् यु विल् सी द नम्बर् देन् यु केन् से 2011 एव
2011 वर्षे वर्षेभ्यः वर्षतः
एकनिमिषं वन् स्माल् क्लारिफिकेशन् इफ् यु वाण्ट् टु से देट् फार् द पास्ट् 10 इयर्स् ऐ एम् देर् देन् दशवर्षेभ्यः अहं तत्र वसामि इति इफ् यु वाण्ट् टु से फ्रम् दिस् इयर् फ्रम् 2011 देन् यु केन् डैरेक्ट्लि से 2011 एव
2011 सिङ्गापुर देशे
वसामि
इदानीम् अहम् आस्ट्रेलिया देशे पुत्रेण सह अस्मि इदानीं कोविड् 19 क्रैसिस्
कारणात्
सिङ्गापुर देशे न प्रतिस्थापयामि ऐ काण्ट् गो बेक् अतः अत्र अस्मि अत्र इदानीं शीत ऋतु आरभ्य
शीतलऋतुं
शीतपेटिकायाम् अनुभवति
शीतपेटिकायाम् अस्मि इति अनुभवामि सम्यक्
Sorry, what does that mean? Shita Petikaya?
Fridge.
I feel like I'm in a refrigerator.
Okay.
Shita Petika, Adava Shita Petika. Samaya Pagini. Puram Sanskritam Pati Davati Va?
Sanskrit Bharati, Sringeri Matasya.
Agre, Lakshmi Bagini, Parul Bagini? वदतु लक्ष्मी भगिनी वदति वा अस्तु पारुल् भगिनी वदति वा
अद्य अष्टवादने प्रैम् मिनिस्टर् मोदी भाषणम् अस्ति
आम् आम् आम्
भगिनि
हा वदतु भगिनि
केन् ऐ रीड्
हा वदतु प्लीस् कृपया वदतु
एकं सम्भाषणं बिट्वीन् टु फ्रेण्ड्स्
हा मित्राणां सम्भाषणं
मित्राणां केन् बी से सखीनां सम्भाषणं
हा
ओके अहं गुरुवासरे प्रदर्शिनीं गमिष्यामि भवती आगच्छति वा मम सखी वदतु प्रदर्शिनीं के
वदति
प्रदर्शिनीं के वस्तु सन्ति शाटिका आभूषणं खाद्यपदार्थानि च सन्ति मम सखी वदतु यदि तव सायङ्काले गच्छति गमिष्यामि अहम् अपि आगमिष्यामि प्रदर्शिनीं के गच्छन्ति सीता लक्ष्मी गायत्री विद्या गमिष्यामि न अहं न जानामि
आगच्छति वा न वा
आगच्छति वा अहं न जानामि
वा इति अहं न जानामि
इति अहं न जानामि सखी वदतु अहं
वदति सखी वदति
सखी
वदति सर्वत्र आल् इन् आल् प्लेसेस् वदति
ओ सोरि अहं श्वः जानामि इति शक्नोमि वा न अहं वदतु यदि भवती गच्छामि तर्हि श्वः वदति वा आम् श्वः वदति दट्स् आल्
अस्तु भवती एव लिखितवती वा यु ओन्लि रोट
या
सम्यक् उत्तमप्रयत्नं यु हेड् गाट् कन्फ्यूस्ड् इन् फ्यू प्लेसस् वेर् अहं कुत्र अहम् आगच्छति तत्र वदामि गच्छामि एव वेर् एवर् अहम् इस् कमिङ्ग् देर् मी
ओके
एण्ड् वेर् एवर् भवती तव इन् दट् प्लेस् तु ऐ थिङ्क् यु हव् डन् इट् उल्टा सा आगच्छति वा तत्र ति आगच्छति वा वेन् यु टाक् डैरेक्ट्लि इट् इस् तु प्रयोगः आर् सी बट् वि यूस् ओन्ली तु हियर् भवती श्वः आगच्छतु अहं श्वः वदामि आर् वदिष्यामि if you want to tell it in proper bhavishyakala future tense then vadishyami or just for trying you can say vadami also
okay so when I say will you tell me I should say
shvah vadishyati va
vadishyati va okay okay
and then aham shvah nyasyami athava aham shvah janami whether I am coming shaknomi va na va iti श्वः अहं ज्ञास्यामि ऐ विल् कम् टु नो टुमारो
श्वः
श्वः वदिष्यामि अथवा अहं श्वः ज्ञास्यामि ऐ विल् कम् टु नो टुमारो ज्ञास्यामि जानाति इस् देर् नो दट् भविष्यकालप्रयोगः ज्ञास्यामि
आक्चुलि वाण्टेड् टु रैट् इफ् यु आर् एबल् टु गो can you call me and tell me on the telephone
so I bhavati we have not done that we have not
so
done
chet
I just tell then we will when we read we can do it detail bhavati gachati chet mam api ahvayatu if you are going call me also
this is complicated
That's what. I don't want to confuse you now. It's okay. Good prayatanam. Samyak prayatanam. So, like this, you can, all of you had done well. I think you understood the basic well. Where I see a problem in everyone's, even Rama Bhagini, you said Pradarshini, Pradarshinyam, Pradarshini. The Vibhakti Prayoge Kinchit Kashtam Anubhavanti Sarve. Atava Sarala Sambhashanam Samyak Kurvanti. Very good, Abhinandanani. This for the past 2 months, you are doing very well, because we connect once in a week. We don't talk every day. Uttama prayatanam sarve krutavantah samyak. If we continue this, maybe by the end of this book, we can fluently converse only in Sanskritam.
Oh, good.
Samyak, uttama.
Thank you.
So,
I had a question. Is it possible that maybe we could log in 15 minutes earlier and just practice among ourselves?
Definitely. Definitely.
And if others are also interested?
Usually I'll log on 10 minutes early.
Okay, okay. So then
you can do that also. Or you can do one thing with whomever you are comfortable or whomever you know. Or in the group only you ask. You can pair up with 2 or 3 people, can make a small group. Then you work according to your schedule. For example, maybe one will be working, she can come on Saturday or Sunday. Like that, pair up. The working people can create one group, and others, whoever can meet in the daytime, you can create a group. Only 2-3 people, not a big group. Find your pair in this group only. You can just talk. That's not an issue. I don't interrupt. You can just talk. Find out a pair. What with that pair for the whole week. Then you can change the pair in the next week, or if you are comfortable, you can continue with the same pair. You can express and you can clear your doubts among yourself. So in that way, the whole week you will be connected.
Yes.
This is just an idea. Maybe you can try.
Yeah, we'll try.
According to your timing, if you are in a different country but in the same time zone, or working people, or however, just openly come up or do a private chat, ask that person's convenience and just go with them. You can find out 2-3 people also, but don't make a big group, then everyone's time will not set, you will unnecessarily lose. So make a small group and prayatanam kurvantu. At least 2 days, 3 days in a week, try to practice for 5-10 minutes within yourself.
Is it prayatanam karotu or kurvantu?
Kurvantu, bahuvachanam. Hello?
Bahuvachanam. See, one sentence like, if any mistake, please correct. Yadi doshaka asti chet kripaya, that's correct. How do you say in
Sanskrit?
यदि दोषः अस्ति चेत् कृपया
हा अहं वदामि पूर्णवाक्यं
या
आई थिंक समबडी इज इन स्पीकर आई कैन हियर माय एको दैट्स व्हाई इट्स नॉट क्लियर हा यू कैन यूज दिस सेंटेंस इन टू वे यदि दोषाः सन्ति तर्हि मां सूचयतु लेट मी नो इफ देयर आर एनी प्रॉब्लम लेट अस नो व्हाई एम Asman Suchetu, that is one way. Or you can say, Doshaha Santi Chet, Parishkaram Kurvantu. Parishkaram is correction.
Dhanyavad.
So now, this week also, instead of we go to the Abhyasa Pustakam, we can do that, whatever we had done, I see in your Sambhashanam, wherever we have the problem, I try to go back and correct that. So this week we have done this Rama Shaptaha last week, right? Let's continue that only now. Is that fine?
Fine.
Yes.
Yes.
सो गतसप्ताहे वयं अहं संस्कृते वक्तुं प्रयत्नं करोमि इफ् यु आर् फैण्डिङ्ग् इट् डिफिकल्ट् देन् आस्मि ऐ विल् ट्रान्स्लेट् हा गतसप्ताहे वयं प्रथमा विभक्ति रामः दत् जानन्ति दृष्टवन्तः. देन् वि हाव् सीन् द्वितीया विभक्ति रामं. यदा वाक्यानि वदन्ति अहं जलं पिबामि, अहं पाकं पचामि इति द्वितीया विभक्ति. कर्मविभक्ति यदा कार्यं प्रचलति, वेन् सम् वर्क् इस् गोयिङ्ग् आन् देन् वि यूस् द्वितीया विभक्ति. देन् लास्ट् वीक् वि हाव् सीन् द षष्टि विभक्ति. वि हाव् सीन् षष्टि. नौ विल् सी सप्तमी अण्ड् पञ्चमी दिस् वीक्. These are all over. I don't want to start something new. Whatever we had done, we'll just revise it. So, now I'll take Saptami Vibhakti first. Saptami Vibhakti, kutra upayogam bhavati. Yada samayah, sthanam, samayah, sthanam, vadamah, tatra Saptami Vibhakti upayogam kurmah. उदाहरणार्थम् अहं बेङ्गलूरुनगरे वसामि, अहं सिङ्गपूर् देशे वसामि, अहं हैदराबाद् नगरे वसामि इति. वेन् यु वाण्टेड् टु टेल् दट् प्लेस् प्रदेशः, देशं वा नगरं वा आर् पर्टिक्युलर् एरिया, राजराजेश्वरीनगरे वसामि, वेन् यु वाण्टेड् टु टेल् दट् देन् अहम् इदानीं गृहे एव अस्मि. ऐ एम् इन् द हौस् ओन्लि, गृहे अस्मि. देन् सप्तमी विभक्ति रामे वेल्कम्. यदा वयं प्रथमं पश्यामः, दीस् आर् आल् ओन्लि पुल्लिङ्गम्. वन्स् यु अण्डर्स्टुड् द बेसिक् देन् विल् डू स्त्री, मे बि नेक्स्ट् वीक् विल् डू स्त्रीलिङ्गम्. सो रामे इति सप्तमी विभक्ति आगच्छति. हस्ते कङ्कणम् अस्ति इस् द बेस्ट् एक्साम्पल्. हस्ते कङ्कणम् अस्ति, bangles there in my hand. Haste gati asti. Vimane janaha santi. Lokayane janaha upavishanti. That is one for a place. Ye iti agachati. Anantaram samayaha. Samayaha aham sayankale brahmanam karomi. Brahmanam is walking. Sayankale brahmanam karomi. मध्याह्ने भोजनं खादामि, प्रातःकाले कार्यालयं गच्छामि, प्रातःकाले पूजां करोमि, पञ्चवादने उत्तिष्ठामि, सप्तवादने विद्यालयं गच्छामि इति समयं. यदा समयं वदामः अथवा सार्धपञ्चवादने, सपाद षड्वादने 6:15, 5:30, पादोन सप्तवादने 6:45, पादोन सप्तवादने सायङ्काले मध्याह्ने इति समयं यदा वदामः तत्रापि सप्तमी आगच्छति. अनन्तरं गतसप्ताहे, लास्ट् वीक्, सप्ताह पुल्लिङ्गशब्दः, देर् सप्ताहे, गतसप्ताहे, गतमासे मन्त्, गतमासे, गतवर्षे लास्ट् इयर् अथवा संवत्सरः अपि वर्षम्. गतसंवत्सरे आल्सो लास्ट् इयर्, गतवर्षे अपि लास्ट् इयर्. देन् आगामिमासे, आगामिवर्षे फ्यूचर्, आगामिवर्षे, आगामिसप्ताहे, आगामिपक्षे फोर्ट्नैट् इति आगच्छति. तत्रापि ये प्रयोगं रामे सप्तमीविभक्तिप्रयोगः एव आगच्छति. इदानीं सप्तमीविभक्तिप्रयोगे सन्देहाः सन्ति वा, डौट्स्? पृच्छन्तु.
नो
एनी डौट्?
नो नो
नो भगिनि. अस्तु, सो क्लियर्. द नेक्स्ट् वीक् प्रयत्नं कुर्वन्तु, अधिकं सप्तमीविभक्तिप्रयोगं कुर्वन्तु. अनन्तरं पञ्चमीविभक्ति, पञ्चमीविभक्ति अपि वयं दृष्टवन्तः पूर्वं. रामात् इति अस्ति, बट् वी हेव् डन् आल् आर् रामतः. गृहतः कार्यालयं गच्छामि, ग्रामतः नगरं गच्छामि, विद्यालयतः आपणं गच्छामि. इफ् यु रिमेम्बर् वी हेव् डन् दिस् मेनी डिफ्रेण्ट् वर्ड्स् वी हेव् डन् तः इति. हियर् इट् इस् रामात् इति अस्ति, बोत् आर् सेम्. रामात् रामतः. हियर् वन् मोर् ईज़ी थिङ्ग् इस् पुल्लिङ्गशब्दः अपि तः आत् बोत् आर् करेक्ट्, स्त्रीलिङ्गशब्दे अपि दे आर् करेक्ट्. शालातः शालात् बोत् आर् करेक्ट्. शाला स्त्रीलिङ्गशब्दं, फर् स्कूल्. विद्यालयः पुल्लिङ्गशब्दं, बोत् आर् सेम् हियर्. बेङ्गळूरुतः अहं देहली गच्छामि. देहलीतः अहं हैदराबाद् गच्छामि. हैदराबाद्तः अहं मुम्बै गमिष्यामि. मुम्बैतः अहं पुनः बेङ्गळूरु आगच्छामि. मुम्बैतः द फ्रम् प्लेस् एण्ड् वेर् एवर् द सेपरेशन् फ्रम् सेपरेटिङ्ग् फ्रम् वन् प्लेस्. वृक्षतः पर्णं पतति. द फ्रम् द ट्री लीव्स् लीव् पर्णानि पतन्ति बहुवचनम्, एकवचनं पर्णं पतति. वृक्षतः फलं पतति, फलानि पतन्ति इति सम्यक्. अनन्तरं वृक्षतः शाखा शाखा ब्राञ्च् पतति अपि सम्यक्. आपणतः अहं वस्तूनि क्रीणामि. फ्रम् द शाप् ऐ बै सम् ऐटम्स्, वस्तूनि क्रीणामि. वित्तकोशतः धनं स्वीकरोमि. फ्रम् द बेङ्क् ऐ टेक् मनी. तः प्रयोगं तत्र तः आत् बोत् आर् करेक्ट्, बट् यूश्वलि फर् सम्भाषणार्थं वयं तः एव उपयोगं कुर्मः. इफ् यु मेक् आत् दट् दट्स् आल्सो फैन्, नाट् अ मिस्टेक्. एनी डौट्स् अत्र पञ्चमी विभक्ति प्रयोगः
भगिनि? पञ्चमी इट् केन् बि यूस् फर् देन् आल्सो नो. दिस् इस् दिस् मीन्स् आपणतः मीन्स् फ्रम् द शाप्. So for than also we use the same panchami, no?
But I don't want to tell that now. First we'll understand okay, this okay. from
okay.
Lakshmanat parah ramah iti asti satyam. Purvah parah comparison. Bhimat parah yudhishthirah. Bhimat shamidam bhimat purvah yudhishthirah. Paraha Arjuna. It is there, but first we will understand the basic from.
Okay, okay, okay. Thank you.
Sandeha Hasantiva? Any doubt?
No, Bhagini. No.
Shulka Nasti.
Samya, Kutam. सो देन् आगामिसप्ताहे इन् द अप्कमिङ्ग् क्लास् प्रयत्नं कुर्वन्तु पञ्चमी सप्तमी उपयुज्य वाक्यं लिखन्तु. यु केन् गो बेक् अण्ड् चेक् युवर् अभ्यासपुस्तकम् एण्ड् ट्रै टु मेक् आर् ऐ विल् आल्सो सेण्ड् सम् होम्वर्क् रिलेटेड् टु देट् इन् वाट्सप्. अस्तु, नौ ऐ विल् शो सम् वर्ड्स्. दोस् वर्ड्स् ट्रै टु ट्रान्स्लेट्. अत्रैव अहं नामं वदामि. Whomever I am calling, you can just do that. Actually, I thought of starting with a Subhashitam. Samskritasya uttama visheha Subhashitam, where you can explain a very big thing in one or two sentences. So Samskrite, बहुविधाः, देर् आर् सो मेनि सुभाषितं आर् देर्. यु आल् मस्ट् बि नोयिङ्ग् सुभाषितं, सो मेनि. फ्रम् देट् ऐ जस्ट् वाण्ट् टु गिव् एव्री वीक् स्टार्ट् वित् वन् वन् सुभाषितम्. ऐ प्रिपेर् बट् ऐ स्वदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यते इति एकमस्ति नीतिशास्त्रः. स्वदेशे means the own country. Pujyate Raja. The Raja is respected in his own country. Vidwan Sarvatra Pujyate. Vidwan scholar, the learned people. Vidwan Sarvatra Pujyate. The learned people are respected everywhere. So, iti ekam Subhashitam. Swadeshe
Pujyate. Swadeshe iti Saptami Agrachi.
Aam. Same, correct. Saptami. स्वदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यते. इति स्वदेशे सप्तमी विभक्तिप्रयोगः अस्तु. एव्रि वीक् ऐ विल् ट्रै टु टेल् वन् सुभाषितम्. इफ् ऐ फर्गेट् मे बि यु केन् ट्रै टेल् देट्.
पूज्यते अपि सप्तमी विभक्ति वा?
न न, पूज्यते
आत्मनेपदेन.
पूजा पूजा अस्ति खलु, पूजां करोमि करोमि इति सर्वदा वदामः. तत्र प्रापर् क्रियापदं पूजते इति अस्ति, पूजते इति अस्ति. तत् पूज्यते इति आगच्छति, अनन्तरं पश्यामः. यत् आत्मनेपथ्ये अस्ति, विधिलिङ्ग्लकारः इति अस्ति. विल् रीड् आल् दस् थिङ्ग्स् लेटर्. अस्तु, पश्यतु. वन् वन् ऐ जस्ट् काल् बै नेम् होवर् नेम् होवर् नेम् रमा भगिनी. हू इस् ही?
सारि भगिनी, क्षम्यताम्.
केन् यु ट्रान्स्लेट् हू इस् ही?
हू इस् ही? सः कः?
हा, सम्यक्, सः कः? देन् नेक्स्ट् मधुरिका. सः कः? किं किम् इस् अ कामन् वर्ड् फार् आल् वर्ड् आल् थिङ्ग्स्. वेन् यु डोण्ट् नो देन् यु विल् यूस् किं, नाम किम् इति. बट् वेन् दि सः अण्ड् आल् कम्, यु हाव् टु यूस् सः कः. इट् इस् अ लेडि, सा का, कः, का, किं. पुल्लिङ्ग नपुं स्त्रीलिङ्ग नपुंसकलिङ्गम्. मधुरिका भगिनी वदतु, सेकेण्ड् वर्ड् इस् शी हियर्? नो, देन् वेर् इस् शी?
सा अत्र का? न, तत् ते कः?
नेक्स्ट् हू वाण्ट्स् टु गो नेक्स्ट्? शुभा भगिनी प्रयत्नं करोति वा? केन् यु ट्रान्स्लेट् इस् शी हियर्?
सः अत्र अस्ति वा? न, अतः कुत्र अस्ति? सः कुत्र अस्ति? सा कुत्र अस्ति? सा अर्येषा?
आम्,
सा अर्येषा?
एषा सा अस्ति वा?
सा अस्ति वा?
अत्र अस्ति वा?
न, न,
अत्र
एषा कुत्र अस्ति?
एषा कुत्र अस्ति?
अस्तु, नेक्स्ट् सुजया भगिनी. हू इस् दिस् बाय्? शुभा भगिनी,
एषः एषः बालकः?
सम्यक्, एषः बालकः कः?
डिड् यु आस्क् मी महोदय?
न न, यु हाव् डन्. श्रीरञ्जनी भगिनी, इस् द लायन् एल्स्वेर्?
सिंहम् अन्यत्र अस्ति वा?
सम्यक्, सिंहम् सिंहः, बट् यु शुड् यूस् द्वितीया विभक्ति. सिंहम् अन्यत्र अस्ति वा? अरविन्द् महोदय, नाट् हियर्.
सः अत्र नास्ति, सः अन्यत्र अस्ति. सः अन्यत्र एव्रिवेर्, सर्वत्र नास्ति.
सः सर्वत्र
कुत्रापि अस्ति इति वर्णं महोदय, कुत्रापि
कुत्रापि नास्ति अपि सम्यक्,
कुत्रापि नास्ति, कुत्रापि नास्ति.
ऐ विल् से वेन् सीतास् बेङ्गल्. सीतास्य कङ्कण कुत्र अस्ति? सीतायाः कङ्कणं
कुत्र अस्ति.
हा सम्यक्. विजया भगिनी.
सीतायाः कङ्कणम् अन्यत्र अस्ति, अत्र नास्ति.
सम्यक्.
धन्यवादः.
अनु भगिनि नेक्स्ट्. द रिवर् कावेरी वाटर् स्वीट्.
कावेरी नदी नदी जलं मधुरमस्ति.
कावेरी नद्याः
जलं मधुरम् अस्ति.
मधुरम् अस्ति. सीतायाः व्यसीनो षष्टिविभक्ति, रामस्य पुल्लिङ्गशब्दः, सीतायाः स्त्रीलिङ्गशब्दः. सो का अत्र नद्याः. अनन्तरं कौशल्या भगिनी.
कावेर्याः उपरि भवानी अस्ति.
कावेर्याः अथवा कावेरी नद्याः अपि कावेर्याः अपि सम्यक्.
कावेरी नद्याः उपरि भवानी अस्ति.
सम्यक्. शर्मिला भगिनी.
सीतायाः पति कः? पत्युः पिता कः?
हस्बेण्ड्स् फादर्. पत्युः पिता कः? शोभा भगिनी. शोभा भगिनी अस्ति वा?
सोरि सोरि, ऐ डिण्ट् अन्म्यूट्. रावणस्य पत्नी, इस् इट् पत्नी?
आम्.
पत्नी मण्डोदरी. मण्डोदर्याः पतिः रावणः.
रावणः मण्डोदर्याः. री नास्ति, र्याः. मण्डोदर्याः. सम्यक्. लक्ष्मी भगिनी. लक्ष्मी भगिनी अस्ति वा? अस्तु, लेट्स् गो टु सेकेण्ड् राउण्ड्. रमा भगिनी. मण्डोदरी सन् इस् मेघनादा.
मण्डोदर्याः पुत्रः मेघनादः अस्ति.
मेघनादः. मधुरिका भगिनी.
भारतदेशस्य प्रधानमन्त्री नरेन्द्र मोदी.
सम्यक्. शुभा भगिनी.
मदर्स् मदर् इस् हियर्. मातायाः माता अत्र
अत्र अस्ति. परन्तु
परन्तु मातायाः पिता अन्यत्र अस्ति.
अत्र माता वाक्यं सम्यक् एव, बट् माता इति शब्दं वि जनरली डोण्ट् यूस् द शब्दं माता. किम् इत्युक्ते दट् इस् ऋकारान्तः, मातृ इति शब्दः अस्ति. डोण्ट् यूस् इट्. सो यु वी केन् यूस् अम्बा आर् जननी शब्दः, आर् अम्बा आकारान्तशब्दः. इदानीं वदति वा अम्बा इति प्रयोगं करोतु.
अम्बा अम्बायाः अम्बा अत्र अस्ति, परन्तु अम्बायाः पितृः
पिता पिता पर्याप्तं.
पिता पिता अन्यत्र अस्ति.
So one thing here, when we use mata, usually we don't use mata and pita in the starting place because both are okay. Ukaranta shabdaha, ukaranta, pitru, matru iti. So when that comes, you will have a different shashti vibhakti. So since that is confusing, we use janakah. Pita means janakah.
Now it is ambaya janakah anyatrasti.
Ambaya janakah
anyatrasti.
Sujaya Bhagini.
Whose husband is he? Saha. I don't know. I have forgotten.
Kasya.
Pati asti.
Saha kasyaha pati asti. Next, Sri Bhagini, Sri Ranjani Bhagini. Rama's arrow, where is Rama's bow?
Ramasya Banaha Kutra Asti.
Dhanush.
Dhanush.
Bow, arrow, Banaha. Bow, Dhanu. Dhanuhu.
Dhanuhu. Ramasya Dhanuhu Kutra Asti.
Arvind Mahodaya. Next.
Ramasya Bana Atra Asti Tatra Nasti.
Vijaya Bhagini.
Eshah Mama Pita. Sa Mama Mata.
This place, Mama, Bhairi, this place we can use Janakah, no?
That's what, in general, you can use Janakah, instead of Pita, you can use Janakah. Or where it is coming in Pratama Vibhakti, just Pita, you just wanted to tell, Pitu, who, his father, if you are not complicating those ways, then Pita is also fine. When you want to use Vibhakti with Pita or Mata Shaptam, then just go with other words. Where here you are just telling, Eshaha Mama Pita. That's all. You are not telling Pitas and all those things, fathers and all. So that is okay. Eshaha Mama Janakaha. She is my mother. There you can say, Esha Mama Mata Api Samyak, Sa Mama Mata Api Samyak. Both are.
And how do we say?
So
at the end.
We have done, no? Eshaha Mama Janakaha. Esha Mama Mata Cha.
Cha
will be coming in the end.
Thank you.
Anu Bhagini.
She is my friend.
Yeah, you can use both. She or he, whichever you are comfortable.
Esha Mama Mitra Asti.
Esha Mama Mitra. If you want to tell it in Strilingam?
Sa Mama Sakhi Asti.
Esha Mama Sakhi. Kaushalya Bhagini, next.
Rajakasya Gardabha Putra Asti.
Samyam. Rajakasya Gardabha. Rajakaha is washerman. Gardabha donkey. Rajakasya Gardabha Putra Asti. Sharmila Bhagini.
Tasya Pustra.
Hi, you can use he or she. She, your, the direct speech is Bhavati or Bhavan or Bhavati. Pulingam Bhavan, Bhavati Sri.
Bhavan Pustakam Kutra Asti.
Bhavataha, yours, Shashti Vibhakti.
Bhavataha Pustakam Kutra Asti.
If you are using she,
Bhavati, Bhavatya Pustakam Kutra Asti.
Bhavataha Namakim, Bhavatyaha Namakim Asti Kalo. Same thing. Bhavataha putram putra pustakam kutra asti, bhavatyaha pustakam kutra asti.
Or tava is also okay, Lord.
Tava is also okay. Anantaram, Kaushalya Bhagini. क्षम्यतां शोभा भगिनी.
जनकस्य पुत्री सीता.
सीता हा सम्यक्. पार्ल भगिनी, हू इस् भरतास् मदर्?
भरतस्य माता कः?
भरतस्य माता का अथवा अम्बा, अम्बा का,
अम्बा का
जननी का. लास्ट् वन् ऐ विल् ओन्ली
त्रिलिङ्ग्.
आम्, हूस् वेलेट् इस् दिस् एण्ड् हूस् वेलेट् इस् दट्? एनिवन् वाण्ट्स् टु डु?
कस्याः धनस्यूतक एतत्? एतत् कस्याः धनस्यूतक?
सम्यक्.
एतत् कस्याः स्यूतक?
तत्र हि आर् शी, इफ् यु यूस् हि, एतत् तत्र वालेट् स्यूतः पुल्लिङ्गशब्दः. सो एषः कस्य धनसू स्यूतः? एषः अथवा एषः स्यूतः कस्य? आल्सो करेक्ट्. धनस्यूतः फस्ट् वन्, सेकेण्ड् वन् स्यूतः.
स्यूतः
एषः कस्याः स्यूतः? आर् इफ् इफ् यु सी अ लेडीस् बेग् देन् यु केन् से कस्याः स्यूतः, आर् इफ् यु सी अ मेन्स् बेग् कस्य स्यूतः, आर् इफ् यु डोण्ट् नो हूस् बेग् इट् इस् देन् कस्य इस् बेटर्. वेर् यु डोण्ट् नो द लिङ्गं देन् पुल्लिङ्गमेव प्रधानम्. तर्हि
this is nice way of practicing.
I am prayatnam karom evam yada vayam sabhashanam kurmah evam kinchit bhinna bhinna ritya kurmah, different methods will follow. Anantaram I just wanted to do Strilinga Shaptam, which we did last week. Last week we had done Dvitiya and Shashti we did. I'll just go to Shashti Vibhakti only. Shashti first. Hey, Karnish. Are you able to see? Hari Om?
Yes, Bhagini.
Yes, we can hear you.
Na, Atra?
Atra Andamaniya Tavala Vaidha Manisa.
Shashti. Shashti is always shows possession. तत्र कस्य कस्य वि यूस् कस्य कस्याः, तत्र सीतायाः, सीतायाः इति शब्दः अस्ति. वेन् स्त्रीलिङ्गम् इस् देर् देन् रामस्य पत्नी सीता, सीतायाः पति इति आगच्छति. सेम् वे शालायाः नाम किं? वाट् इस् द स्कूल् नेम्? विद्यालयस्य नाम किं? पुल्लिङ्गशब्दः. सेम् थिङ्ग् शालायाः नाम किं? त्रीलिङ्गं. शालायाः नाम किं? त्रीलिङ्गम्. अनन्तरं सखी अस्ति, सख्याः नाम किं? वाट् इस् युवर् फ्रेण्ड्स् नेम्? भवत्याः सख्याः नाम किम्? अनन्तरं गृहस्य सङ्केतः, नम्बर्, अड्रेस्. गृहस्य सङ्केतः कः? वाट् इस् युवर् हौस् अड्रेस्? गृहस्य सङ्केतः अशब्दं, तत्र पुलिङ्गम् एव आगच्छति, नपुंसकलिङ्गं, गृहं. वाटिकायाः सङ्केतकः कः? वाट् इस् द, वेर् इस् द पार्क्? वाटिकायाः सङ्केतकः कः. अनन्तरं तस्याः स्यूतः कुत्र अस्ति, वेर् इस् हर् बेग्, तस्याः स्यूतः, इफ् इट् इस् नियर् देन् एतस्याः स्यूतः कुत्र अस्ति इति सीतायाः षष्टिविभक्तिप्रयोगः. ऐ थिङ्क् षष्टिविभक्तिप्रयोगः आल् आर् क्लियर्. विल् डु अण्ड् द्वितीया विभक्ति विच् वि डिड् लास्ट् वीक् फर् रामं, पुलिङ्ग रामं शब्दं द्वितीया विभक्ति समानम् अत्र सीतां सेम् नदीम् ईकारान्तशब्दः नदीं सीतां सेम् अहं माला स्थालिकां स्थापयामि ऐ कीप् द प्लेट् अहं मालां धरामि ऐ वेर् द माला किं चैन् मालां धरामि अहं कथां वदामि कथास्त्रीलिङ्गम् अहं कथां वदामि इति द्वितीया विभक्तिप्रयोगः आगच्छति. हियर् बोतर् से रामं सीतां बोतर् इं प्रयोगः, सो नो कन्फ्यूशन् इन् द्वितीया विभक्ति. षष्टि अण्ड् द्वितीया आर् क्लियर्. स्त्रीलिङ्गम् एनी डौट्स्? सन्देहमस्ति
वा?
देन् विल् गो टु सप्तमी. सप्तमी सीतायां तेर् हस्ते कङ्कणम् अस्ति, ये रामे, पश्यतु रामे इति आगच्छति प्रातःकाले सायङ्काले इति ये इति प्रयोगः आगच्छति. अत्र सीतायां स्त्रीलिङ्गं याम् इति आगच्छति. नदी ईकारान्तशब्दः नद्याम् इति आगच्छति, दट् ई विल् गो नद्यां. कूपी कूप्यां विल्कम् द लास्ट् ईका ई विल् गो अण्ड् या विल्कम् दोस् आर् आल् सन्धिप्रयोगः, विल् डू दिस् लेटर् सन्धि. सो सीतायां कूप्यां नद्याम् इति आगच्छति यां याम् इति. शालायां छात्राः सन्ति. नासिकायां नासिका नोस् नासिकाभरणम् अस्ति, नोस्पिन् अस्ति. अनन्तरं नद्यां मीनाः सन्ति. नद्यां
कूप्यां जलमस्ति, कूप्यां जलम्
आम् कूप्यां सन्ति, कूप्यां जलमस्ति. वाटिकायां पुष्पाणि सन्ति, वाटिकायां. द्विचक्रिकायां चक्राणि सन्ति, टु वीलर् च द्विचक्रिका. द्विचक्रिकायां चक्राणि सन्ति. याम् इति प्रयोगः सप्तमी विभक्तिप्रयोगः. एनी डौट्स्? मे बि रमा भगिनी, अहम् उक्तवती खलु प्रदर्शिनी प्रदर्शिन्यां, प्रदर्शिनी ईकारान्तशब्दः न्यां प्रदर्शिन्यां.
आं भगिनि.
के के अंशाः आसन् सीतायां रमायां वाटिकायां इति सप्तम आगच्छति. सि मे बि नेक्स्ट् वीक् वेन् यु रैट् यु केन् गिव् इम्पार्टेन्स् टु दीस् थिङ्ग्स्. सप्तमी अण्ड् पञ्चमी स्त्रीलिङ्गप्रयोगं प्रयत्नं कुर्वन्तु. मे बि विल् सी मोर् एक्साम्पल्स् आफ्टर् यु हेड् कम्प्लीटेड् युर् वर्क्. इन् पञ्चमी इट् इस् गिवन् सीतायाः. इफ् यु सी षष्टि आल्सो सीतायाः, पञ्चमी आल्सो सीतायाः. सो टु अवाय्ड् दिस् थिङ्ग् वाट् वी डू वैल् वी टाक् सम्भाषणसमयं वि यूस् पञ्चमी सेम् एस् पुल्लिङ्गशब्दः. अत्र टेबल् अस्ति खलु रामात् इति अस्ति, रामतः आर् रामात् समानशब्दं सीतातः एव उपयोगं कुर्मः. वि डोण्ट् यूस् सीतायाः when we talk casually. Sita sitatah I said no vidyalayatah griham agachami, same way shalatah griham agachami. Tatra pulinga strilingam samanana prayoga tah eva panchami madhye shalatah agachami. Kashi asti, kashi ikaranta strilingam. Kashi tah कन्याकुमारी गच्छामि. स्पष्टं वा? पञ्चमविभक्ति पुल्लिङ्गं स्त्रीलिङ्गं नपुंसकलिङ्गं समानं द्वितीयाविभक्ति आल्सो समानं we have difference whatever we had done till now in that we have difference in shashti and saptami
shashti saptami
shashti saptami pullinga and napumsakalingam are same strilingam is different
a question will be kutaha na kutaha agachati or
aam aam kutaha
kutaha
aam
kutaha agachati
aam न कुतः गच्छति नास्ति कुतः
आगच्छति
कुत्र गच्छति वेर् आर् यु गोयिङ्ग् कुत्र गच्छति देर् यु विल् गेट् अ तृतीया विभक्ति अहं ग्रामं गच्छामि आपणं गच्छामि विद्यालयं गच्छामि वेन् कुत्र पदं कम्स् मोस्ट्लि वि द्वितीया अस्तु सो नौ जस्ट् रिमेम्बर् टु थिङ्ग्स् षष्टि एण्ड् सप्तमि स्त्रीलिङ्गप्रयोगम् आर् डिफ्रेण्ट् देन् पुल्लिङ्गशब्दः सो मे बि यु केन् टेक् अ नोट् द्वितीया पञ्चमी आर् सेम् अस्तु वा सो नेक्स्ट् वीक् वेन् एवर् यु मेक् अ सेण्टेन्स् यु ट्रै टु गिव् इम्पार्टेन्स् ऐ मीन् डु नाट् ट्रै टु अवाय्ड् मिस्टेक्स् वैल् यूसिङ्ग् द्वितीया panchami shashti saptami and give importance to these four shabdah try to make do it without mistakes ha vadantu bhagini
could you please repeat panchami and dvitiya vibhakti are same pullinga and strilinga
ha
and shashti and saptami are different isn't it
see correct like in dvitiya vibhakti also im is coming no ramam sitam iti yeah. im agachati antime yeah. same way tah padam panchami vibhakti madhye ramatah sita tah iti agachati
yes
yeah. shashti and saptami are different
okay ma
so you can just go through this table and practice
yeah
last 5 minutes see agami saptahe whenever you are writing the sentence etat adarena all these four vibhakti try to address all these four vibhakti and make your own sentences even if you are telling from katha then just create it in your own words the katha and as I told you can try to make sambhashanam do sambhashanam with another person or at least to you, yourself next week also we will try to do more practice sambhashana prayatanam at least half time we'll do since till I finish this vibhakti revision from next week we can start half this one half an hour this and the remaining time the new lesson
okay astu
kimapi prashna
asti va
any questions doubt
no doubt